ಪ್ರತಿಗುಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಶೃಣ್ವನ್ ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೇ ಸರಸ್ವತೀ ವಾಜಿನೀವತಿ ಧೀನಾಮ ವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೆ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೆ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾತನುರಘೋರ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಚಾಕಷಿ ಯಾಮಿಷುಂ ಗಿರಿಶಂತಹಸ್ತೇ ಬಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿಗುಂ ಶ್ರೀ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾವದಾಮಸಿ ಯತಾನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೇಗಶ್ಚ ಸರ್ವಾನ್ಯಂ ಭಯಂ ಸರ್ವಾಸ್ತಯಾತು ಧಾನ್ಯಃ ಅಸವ್ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರೋ ಸ್ವಮಂಗಳಃ ಯೇ ಚೇಮಾದುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷು ಶ್ರುತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡ ಈಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರನ್ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ವಮುಭಯೋರಾಜ್ನಿಯೋರ್ಜ್ಯಾ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವ ಪರಾತ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾಣಾ ಮುಖ ಶಿವೋ ನ ಸುಮನಾಭವ ವಿಜ್ಯಂ ಧನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿ ಯಾತೇ ಹೇತಿರ್ಮೀಡುಷ್ಟ ಮಹತ್ತೇ ಬಭೂವತಿ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯ ನಾತತಾಯ ದೃಷ್ಟವೇ ಉಭಾಭ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೆ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯ ಇಷು ದಿತ್ತವಾರೇ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂ ಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नवो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः तस्मिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुषाय विव्याधिने नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय ततावीने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय तपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्त एवारिव कृतायौषधीनां पतये नमो नम उच्चैर्दोषाय ग्रन्थयते पत्तीनां पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः नमः सहवानाय निव्याधिनाव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणेस्तेनां पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेनवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिगागुं सद्भ्यो मुष्णतां पतये नमो नमो शिवद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीशिरे गिरिचराय कुलुञ्चानां पतये नमो नम इषुवद्भ्यो दन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमः तिष्ठद्भ्यो दावभ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यः त्रिगुह्नतेभ्यश्च वो नमो नमो घृत्सेभ्यो घृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः दक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृभ्यो दन्वकृभ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविष्टाय च नमो मीडुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शेभ्याय च नमः ऊर्ध्याय च वस्वन्याय च नमः श्रोतस्याय च वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुध्नीयाय च नमः सोऽप्याय च प्रतिसर्याय च नमो याव्याय च क्षेव्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय च वतान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरताय च नमः शूराय च वभिन्दते च नमो वर्मिणे च वरूतिरे च नमो भिल्मिने च कवचिरे च नमः श्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च हनन्याय च नमो तृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषुधिमते च नमः शेषेशवे चायुदिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः कार्याय च नेप्याय च नमः शूद्राय च तरस्याय च नमो नाभ्याय च वैषन्ताय च नमः कोप्याय च भट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेभ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वाप्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो अन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः सेत्याय च कूल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्प्याय च पेर्याय च नमः ಸಿಗತ್ಯಾಯ ಚ ಪ್ರವಾಹ್ಯಾಯ ಚ ನಮ ಇರಿಂದ್ಯಾಯ ಚ ಪ್ರಪತ್ಯಾಯ ಚ ನಮ ಕೇಗುಂ ಶಿಲಾಯ ಚ ಕ್ಷಯಣಾಯ ಚ ನಮ ಕಪರ್ತಿನೇ ಚ ಪುಲಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಠ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮ ಸ್ಥಲ್ಪ್ಯಾಯ ಚ ಗೇಹ್ಯಾಯ ಚ ನಮ ಕಾರ್ಯಾಯ ಚ ಗವರೇಷ್ಠಾಯ ಚ ನಮೋ ಹೃದಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮ ಪಾಗುಂ ಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚೋಲಭ್ಯಾಯ ಚ ನಮ ಊರ್ಮ್ಯಾಯ ಚ ಸೂರ್ಮ್ಯಾಯ ಚ ನಮ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಶಧ್ಯಾಯ ಚ ನಮೋಪಗುರಮಾಣಾಯ ಚ ವಿಘ್ನತೇ ಚ ನಮ ಆಖಿಣತೇ ಚ ಪ್ರಕಿಣತೇ ಚ ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗುಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೇಭ್ಯೋ ನಮ ಆಮೀವತ್ಕೇಭ್ಯಃ ದ್ರಾಪೇ ಅಂಧಸಸ್ಪತೇ ತರಿದ್ರಂ ನೀಲಲೋಹಿತಾ ಯೇಷಾಂ ಪುರುಷಾಣಾಮೇಷಾಂ ಪಶೂನಾಂ ಮಾವೇರ್ಮಾರೋಪೋ ಯೇಷಾಂ ಕಿಂಚ ನಾಮಮತ್ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋ ಶಿವಾ ವಿಶ್ವಾಹ ಭೇಷಜೇ ಶಿವ ರುದ್ರಸ್ಯ ಭೇಷಜೇತಯಾನೋ ಮೃಣಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಶಯದ್ವೀರಾಯ ಪ್ರಮರಾಮಹೇ ಮತಿಂ ಯತಾನ ಶಮಸತ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಡಾನೋ ರುದ್ರೋ ತನೋ ಮಯತ್ಕೃತಿ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಚ್ಚಂ ಚ ಯೋಶ್ಚ ಮನುರಾಯ ಚೇ ಪಿತಾ ತದಶ್ಯಾಮತವ ರುದ್ರ ಪ್ರಣೀತೌ ಮಾನೋ ಮಹಾಂತ ಮುತ ಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತ ಮುತ ಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋವದೇ ಪಿತರಂ ಮೋತ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನತ್ತೋಕೇತನ ಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ರೀರಿಷಃ ವೀರಾನ್ ಮಾನೋ ರುದ್ರ ಭಾವಿತೋ ವದಿರ್ ಅವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆನಾತ್ತೆ ಗೋಘ್ರ ಉತ ಪೂರುಷಗ್ನೇ ಕ್ಷಯತ್ವೀರಾಯ ಸುಂ ನಮಸ್ಮೇತೆ ಅಸ್ತು ರಕ್ಷಾ ಚ ನೋ ಅಧಿ ಚ ದೇವ ಪ್ರೂಯತಾ ಚ ನ ಶರ್ಮ ಯಚ್ಚ ದ್ವಿಬರ್ಹ ಸುಹಿಶ್ರುತಂ ಗರ್ತ ಸದಂ ಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ನು ಮುಕ್ರಂ ಮೃಡಾ ಚರಿತ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೆ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತಿರ್ವೃಣಕ್ತು ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮತಿರಗಾಯೋ ಅವಸ್ಥಿರಾಮಗವದ್ಯಸ್ತನುಷ್ವಮೀಡ್ವಸ್ತೋಕಾಯತನಗಾಯ ಮೃಡಯ ಮೀಡುಷ್ಟಮಶಿವತಮಶಿವೋ ನ ಸುಮನಾಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ಯಂ ವಸಾನ ಆಚರ ಪಿನಾಕಂ ಬಿಭ್ರದಾಗಹಿ ವಿಕಿರಿದ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂತುತಾ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಧಾ ಬಾಹುವೋಸ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೀನಾ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೆ ವಧನ್ವಾನಿ ದನ್ಮಸಿ ಅಸ್ಮಿನ್ ಮಹತ್ಯನ್ನವೇ ಅಂತರಿಕ್ಷೇ ಭವ ಅದೇ నీలగ్రీవాశితి కంఠా శర్వా అధః క్షమాచరా నీలగ్రీవాశితి కంఠాదివగుం రుద్రా ఉపశ్రితా యే వృక్షేషు సస్మిన్ జరా నీలగ్రీవా విలోహితా యే భూతానామధిపతయో విశికాసక్కపర్దినః యే అన్నేషు వివిధ్యంతి పాత్రేషు విమతో జనాన యే పతాం పతిరక్షయ ఐలభృదాయ వ్యుదః యే తీర్థాని ప్రచరంతి శృకావంతో నిషంగిణః య ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుంసత్రయోజనే వధన్వాని దన్మసి నమో రుద్రేభ్యో యే పృథివ్యాం యేంతరిక్షే యే దివి యేషామన్నం వాతో వర్షమిషవస్తేభ్యో దశ ప్రాచీర్దశ దక్షిణా దశ ప్రతిచీర్ధశో దేచీర్ధశోద్వాస్తేభ్యో నమస్తే నో మృడయంతు తేయం విష్మో యశ్చ నో ద్వేష్టితం భోజం భేదదామి త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ వందనాత్ మృత్యోర్ముక్షేయమామృతాత్ యో రుద్రో అగ్నవ్యో అప్సు యోషధీషు యో రుద్రో విశ్వా భువనా వివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశా మృత్యో మత్యాయ హంతవే తాన్యజ్ఞస్య మాయయా సర్వానవయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః తేనాన్నేనాప్యాయస్వ నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తమస్తు హియస్విషుసుధన్వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశౌ మనసాయ రుద్రం నమో భిర్దేవమసురం దువస్య అయం మే హస్తో భగవాన్ అయం మే భగవత్తరః అయం మే విశ్వభే సజోయగుం శివాభిమర్షణః ఓం శాంతి శాంతి శాంతిః ఓం అగ్నా విష్ణో సజోష సేవా వర్ధంతు వాం గిరః ద్యుమ్నైర్వాజేభిరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసిదిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే సువశ్చ మే ప్రాణశ్చ మే అపానశ్చ మే వ్యానశ్చ మే సుశ్చ మే చిత్తం చ మాధీతం చ మే వాక్ చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మోజశ్చ మే సహశ్చ మ ఆయుశ్చ మే జరా చ మ ఆత్మా చ మే తనుశ్చ మే శర్మ చ మే వర్మ చ మేంగాణి చ మే స్థాని చ మే పరోపుంషి చ మే శరీరాణి చ మే జ్యేష్ఠ్యం చ మాధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మే మశ్చ మే మశ్చ మే జేమా చ మే మహివా చ మే వరివా చ మే ప్రతివా చ మే వస్మా చ మే ద్రాయుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే ద్విషిశ్చ మే క్రీడా చ మే మోదశ్చ మే ಜಾತಂ ಚ ಮೇ ಜನಿಷ್ಯಮಾಣಂ ಚ ಮೇ ಸೂಕ್ತಂ ಚ ಮೇ ಸುಕೃತಂ ಚ ಮೇ ವಿತ್ತಂ ಚ ಮೇ ವೇದ್ಯಂ ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭವಿಷ್ಯತ್ ಚ ಮೇ ಸುಖಂ ಚ ಮೇ ಸುಪಥಂ ಚ ಮರುದ್ಧಂ ಚ ಮರುದ್ಧಿಶ್ಚ ಮೇ ಕೃಪ್ತಂ ಚ ಮೇ ಕೃಪ್ತಿಶ್ಚ ಮೇ ಮತಿಶ್ಚ ಮೇ ಸುಮತಿಶ್ಚ ಮೇ ಶಂ ಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಣಂ ಚ ಮೇ ಯಂತಾ ಚ ಮೇ ಧರ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಚ್ಯ ಮೇ ಜ್ಞಾತ್ರಂ ಚ ಮೇ ಸೋಶ್ಚ ಮೇ ಪ್ರಸೋಶ್ಚ ಮೇ ಸೇರಂ ಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂ ಚ ಮೇ ಮೃತಂ ಚ ಮೇ ಯಕ್ಷ್ಮಂ ಚ ಮೇ ನಾಮಯಚ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇ ನ ಮಿತ್ರಂ ಚ ಮೇ ಭಯಂ ಚ ಮೇ ಸುಖಂ ಚ ಮೇ ಶಯನಂ ಚ ಮೇ ಸೂಷಾ ಚ ಮೇ ಸುದಿನಂ ಚ ಮೇ ಊರ್ಚ ಮೇ ಸೋನೃತಾ ಚ ಮೇ ಪಯಶ್ಚ ಮೇ ರಸಶ್ಚ ಮೇ ಘೃತಂ ಚ ಮೇ ಮಧುಜ ಮೇ ಸ್ರಗ್ಧಿಶ್ಚ ಮೇ ಸ್ರಪೇತಿಶ್ಚ ಮೇ ಕೃಷಿಶ್ಚ ಮೇ ವೃಷ್ಟಿಶ್ಚ ಮೇ ಜೈತ್ರಂ ಚ ಮ ಔದ್ಭಿದ್ಯಂ ಚ ಮೇ ರಯಿಶ್ಚ ಮೇ ರಾಯಶ್ಚ ಮೇ ಪುಷ್ಟಂ ಚ ಮೇ ಪುಷ್ಟಿಶ್ಚ ಮೇ ವಿಭುಜ ಮೇ ಪ್ರಭುಜ ಮೇ ಬಹುಜ ಮೇ ಭೂಯಶ್ಚ ಮೇ ಪೂರ್ಣಂ ಚ ಮೇ ಪೂರ್ಣತರಂ ಚ ಮೇ ಕ್ಷಿತಿಶ್ಚ ಮೇ ಕೂಯವಾಶ್ಚ ಮೇ ನಂ ಚ ಮೇ ಕ್ಷುಶ್ಚ ಮೇ ವೇಹಯಶ್ಚ ಮೇ ಯವಾಶ್ಚ ಮೇ ಮಾಶಾಶ್ಚ ಮೇ ತಿಲಾಶ್ಚ ಮೇ ಮುದ್ಗಾಶ್ಚ ಮೇ ಖಲ್ವಾಶ್ಚ ಮೇ ಗೋಧೂಮಾಶ್ಚ ಮೇ ಮಸುರಾಶ್ಚ ಮೇ ಪ್ರಿಯಂಗವಶ್ಚ ಮೇ ನವಶ್ಚ ಮೇ ಶ್ಯಾಮಕಾಶ್ಚ ಮೇ ನಿವಾರಾಶ್ಚ ಮೇ ಅಶ್ಮಾಶ್ಚ ಮೇ ಮೃತ್ತಿಕಾಶ್ಚ ಮೇ ಗಿರಯಶ್ಚ ಮೇ ಪರ್ವತಾಶ್ಚ ಮೇ ಶಿಖತಾಶ್ಚ ಮೇ ವನಸ್ಪತಯಶ್ಚ ಮೇ ಹಿರಣ್ಯಂ ಚ ಮೇ ಯಶ್ಚ ಮೇ ಸೀಸಂ ಚ ಮೇ ತ್ರಪುಶ್ಚ ಮೇ ಶ್ಯಾಮಂ ಚ ಮೇ ಲೋಹಂ ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಆಪಶ್ಚ ಮೇ ವಿರುಧಶ್ಚ ಮ ಓಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಯಂ ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಯಂ ಚ ಮೇ ಗ್ರಾಮ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಆರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾ ವಿತ್ತಂ ಚ ಮೇ ವಿತ್ತಿಶ್ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸು ಚ ಮೇ ವಸತಿಶ್ಚ ಮೇ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮೇ ಅರ್ಥಶ್ಚ ಮ ಹೇಮಶ್ಚ ಮ ಇತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತೀ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪೂಷಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಷ್ಣುಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಶ್ವಿನೋ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮರುತಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಶ್ವೇ ಚ ಮೇ ದೇವಾ ಇಂದ್ರಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಅಂತರಿಕ್ಷಂ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದ್ಯೋಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದಿಶಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮೂರ್ಧಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪ್ರಜಾಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ अगुंसुश्च मे रश्मिश्च मेधा अभ्यश्च मेधिपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे वन्ते च म आग्रयनश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुत ग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे आर्योजनश्च मे विद्मश्च मे बर्हिश्च मे वेधिश्च मे धिष्णीयाश्च मे सृचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवने च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवणीयश्च म आदिद्रम् च मे हविर्दानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे बभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मे दिदिश्च मे दिदिश्च मे द्यौश्च मे शक्वरीरङ्गुलयोदिशश्च मे यज्ञेन कल्पन्ताम्रुक्च मे स्वाम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयो वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे द्वित्यवाच्च मे द्वित्यो हि च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे
त्रिवत्सा च मे
तुर्यवाच्च मे तुर्यो हि च मे अष्टवाच्च मे अष्टो हि च म उक्षा च मे वशा च म ऋषभश्च मे वेहश्च मे नड्वाश्च मे धेनुश्च म आयु यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतावुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविपुंशतिश्च मे त्रयोविपुंशतिश्च मे पञ्चविपुंशतिश्च मे सप्तविपुंशतिश्च मे नवविपुंशतिश्च म एकत्रिपुंशच्च मे त्रयस्त्रिपुंशच्च मे चतस्रश्च मे अष्टौ च मे द्वादश च मे षोडश च मे विपुंशतिश्च मे चतुर्विपुंशतिश्च मे स्वाविपुंशतिश्च मे द्वात्रिपुंशच्च मे षट्त्रिपुंशच्च मे चत्वारिपुंशच्च मे चतुश्चत्वारिपुंशच्च मे अष्टाचत्वारिपुंशच्च मे वाजस्य प्रसवस्यापि च क्रतुश्च शुभश्च मूर्धा च व्यश्नेयश्चान्त्यायनश्चान्द्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञने बृहस्पतिरुक्ता मदानि शगुंशिषद्विश्वे देवासोक्तवाच पृथिवीमातर्मा माहिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुभक्ष्यामि मधुमदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुंसश्रोषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभाय पितरोऽनुमदन्तु ॐ शान्ति 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 ॐ तच्छयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्त्वद्विपदे शं चतुष्पदे ॐ शान्ति 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 सहस्रशीर्षा पुरुषः सहस्राक्षरः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यधिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् हुतामृतत्वशेषाणः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्व उदेत् पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्मत वसन्तो अस्यासीदाज्यम् ग्रीष्म इत्म शरद्दभिः सप्तास्य सन्परिदयः त्रिसप्त समिद कृताः देवायज्ञज्ञम् धन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यादिशयस्य ये तस्माद्यज्ञात् सर्वहुतः संवृतम् वृषदाज्यम् पशोस्तावस्य ग्रेवायव्यान आरण्यान् ग्राम्याश्रये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेचो भयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कटिरा व्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरुकलस्य यद्वैश्यः पद्यांशूद्रो अजायत चन्द्रमा मनसो जातः चक्षुः सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यौ समवर्तत पद्म्याम् भूमिर्दिशश्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवधन्यदास्ते धाता पुरस्ताद्यमुराजहार शक्रप्रविद्वान् प्रतिशस्रतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतपृथिव्यैरता च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरधिगर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मणे रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदद्ब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा सन्मते ते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् महिषाणा अमुम् महिषाणा सर्वम् महिषाणा तच्छयो रावृणीमये गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शण्णो वस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ भूमिर्भूम्याद्योर्वरिणान्तरिक्षम् महित्वा उपस्थेते देव्यदिदेग्निमन्नादमन्नाध्यायादधे आयङ्गो कृष्णिरक्रमेदसनन्मातरम् पुनः पितरम् च प्रयन्सुवः त्रिगुंशद्धामविराजति वाक्पतङ्गायसि श्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानद्यन्तश्चरति रोचना व्यख्यन्महिषः सुवः यत्वा क्रुद्धः परोमपमन्युना यदवत्या సుకల్పమగ్ని తత్తవ పునస్వో దీపయామసి యత్తే మన్యుపరోక్తస్య పృథివీ మనుదధ్వసే ఆదిత్యా విశ్వే తద్దేవా వసవశ్చ సమాభరన్ మనోజ్యోతిర్జుషతామాజ్యం విచ్ఛిన్నం యజ్ఞగుంసమివం దధాతు బృహస్పతిర్తనుతామిమన్నో విశ్వే దేవా ఇహ మాదయంతాం మేరినే దేవే వసుంధరా స్యాద్వసుధా దేవే వాసవే బ్రహ్మవచ్చతః పితృణా దుశ్రోత్రం చక్షుర్మనః దేవే హిరణ్యగర్భిణే దేవే ప్రసూవరే సదనే సత్యాయనే సీదా సముద్రవతి సావిత్రే హనో దేవే మహ్యంగే మహీధరణి మహోయతిష్ఠా శృంగే శృంగే యజ్ఞే యజ్ఞే విభీషిణే ఇంద్రపత్ని వ్యాపిని సురసరిదిహా వాయుమతి జలశయని శ్రియం ధారాజా సత్యం ధోపరిమేధినే శోపరి దత్తం పరిగాయ విష్ణుపత్నీ మహీం దేవి మాధవే మాధవ ప్రియా లక్ష్మీ ప్రియ సఖీం దేవీం నమామ్యచ్యుతవల్లభా ధనుర్ధరాయై విద్మహే సర్వసిద్ధ్యై చ ధీమహే తన్నోధరా ప్రచోదయాత్ మహీం దేవీం విష్ణుపత్నీమజూర్యా ప్రతీచీమేనాగుం భవిషాయ జామహ త్రేధా విష్ణురుగాయో విచక్రమే మహీం దివం పృథివీమంతరిక్షం తచ్చోనే త్రిశ్రవ ఇచ్చమానా పుణ్యకృష్ణోకం యజమానాయ కృణ్వతే శాంతి శాంతి శాంతిః ఓం హిరణ్యవర్ణాశుచయ పావకాయాసు జాత కశ్యపోజాస్వింద్రః అగ్నిం యా గర్భం దధిరే విరూపాస్తాన ఆపశగ్గస్యో నాభవంతు సాగుం రాజా వరుణో యాతి మధ్యే సత్యా నృతే అవపశ్యం జనానాం మధుశ్రుచశ్రుచయో పావకాస్తాన ఆపశ్యగ్గస్యో నాభవంతు యాసాం దేవాదివికృణ్వంతి భక్ష్యం య అంతరిక్షే బహుధా భవంతి యా పృథివీం వయసోందంతి శుక్రాస్తాన ఆపశ్యగ్గుస్యో నాభవంతు శివేన మాచక్షుషా పశ్యతాపశివయా తనువోపస్పృశతత్వచం మే సర్వాగుం అగ్నిగుం రప్సుషదో హువే వో మయి వర్చో బలమోజో నిధత్తా పవమాన సువర్జనః పవిత్రేణ విచర్షణిః యప్పోతాస పునాతు మా పునంతు మా దేవ జనాః పునంతు మనవో ధియా పునంతు విశ్వ ఆయవః జాతవేద పవిత్రవత్ పవిత్రేణ పునాహి మా శుక్రేణ దేవదేద్యత్ అగ్నే క్రత్వా క్రతో గుమ్రనో యత్తే పవిత్రమర్చిషే అగ్నే వితతమంతరా బ్రహ్మతేన పునీమహే ఉభాభ్యాం దేవసవితః పవిత్రేణ సవేన చ హిదం బ్రహ్మ పునీమహే వైశ్వదేవీ పునతే దేవ్యా వాత్ యస్యై భవ్యేస్తనువో వీతపృష్ఠాః తయా మదంతః సధమాధ్యేషు वयग्रस्यामपतयोरयीनाम् वैश्वानरो रश्मिभिर्मा पुनातु पातः प्राणेनि शिरोमयो भूः ध्यावा पृथिवी पयसापयोभिः ऋतावरी यज्ञिये मा पुनीता बृहद्भिः सवितसृभिः वर्षिष्ठैर्देवमन्मभिः अग्ने दक्षये पुनाहि मा येन देवा अपुनता येनापो दिव्यङ्कषः तेन दिव्येन ब्रह्मणा इदम् ब्रह्म पुनीमहे यः पावमानेरध्येति ऋषिभिः संवृतगुम्रतम् सर्वगुंसपूतमश्नाति स्वदितम् मातरिश्वना पावमानीर्यो अध्येते ऋषिभिः संवृतगुम्रतम् तस्मै सरस्वते दुहे क्षीरगुम् सर्पिर्मधोदकम् पावमाने स्वस्त्ययनीः सुदुकाहि पयस्वतेः ऋषिभिः संवृतो रसः ब्राह्मणेष्वमृतगुम्हितम् पावमानेर्दिशन्तु नः इमम् लोकमथो अमुम् कामान् समर्थयन्तु नः देवैर्देवैः समाभृताः पावमाने स्वस्त्ययनीः सुदुर्गाहि घृतस्तुचः ऋषिभिः संवृतो रसः ब्राह्मणेष्वमृतगुम्हितम् येन देवा पवित्रेण आत्मानम् पुनते सदा तेन सहस्रधारेण पावमान्यः पुनन्तु मा प्राजापत्यम् पवित्रम् शतोद्यामगुम् हिरण्मयम् तेन ब्रह्मविदो वयम् भूतम् ब्रह्म पुनीमहे इन्द्रः सुनीति सह मा पुनादो सोमस्वस्त्या वरुणः समीच्या यमो राजा प्रमृणाभिः पुनातु माम् जातवेदा मोर्जयन्त्या पुनातु भूर्भुवः सुवः तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः यो ब्रह्मा ब्रह्मण उज्जहार प्राणेशिर कृत्तिवासा पिनाके ईशानो देवः स न आयुर्दधातु तस्मै जुहोमिह विशाघृतेन बिभ्राजमानः शरीरस्य मध्य द्रोचमानो धर्मरुचिर्य आगात् समृत्युपाशानपनुत्य घोरा निहायुषेण कृतमत्तु देवः ब्रह्म ज्योतिर्ब्रह्म पत्नीषु गर्भम् यमादधात् पुरुरूपम् जयन्तम् सुवर्णरम्भग्रहमर्कमर्चम् तमायुषि वर्धयामो घृतेन श्रियम् लक्ष्मीमौ बलामम्बिकाङ्गाम् षष्ठीम् च यामिन्द्रसेनेत्युदाहुः ताम् विद्याम् ब्रह्मयोनिगुंसरूपामिहायुषे तर्पयामो घृतेन द्राक्षायण्यः सर्वयोन्यः स योन्य सहस्रशो विश्वरूपा विरूपाः ससूनवः सपतयः स योध्य आयुषेण घृतमिदम् जुषन्ता दिव्याघणा बहुरूपा पुराण आयुष्ठिदो न प्रमथ्नन्तु वीरान्
तेभ्यो जुहोमि बहुधा वृथेन मान प्रजागुं रीरिषो मोत वीरान् एक पुरस्ताद्य इदम् बभूव यतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुंसाम् पराय स नो हविर्घृतमिहायुषे तु देवः वसून्रुद्राणादित्यान् मरुतोधसाध्यान् ऋभून्यक्षान् गन्धर्वागुश्च पितृकुश्च विश्वान् भृगून् सर्पांश्चाङ्गिरसोऽथ सर्वा ऋतगुम् हुत्वा स्वायुष्यामः याम शश्वत् विष्णो त्वम् नो अन्तमः शर्म यच्च सहन्त्या प्रतेधारामधुश्चु च उत्सम् दुःप्रते अक्षितम् ॐ शान्ति शान्ति शान्तिः ॐ अहम् रुद्रेभिर्वसुभिश्च राम्यहमादित्यैरुत विश्वदेवैः अहम् मित्रावरुणो वाभिवर्म्यहमिन्द्राग्नि अहमश्विनो भा अहम् सोमामाहनसम् बिभर्म्यहम् त्वष्टारमुत पूषणम् भगम् अहम् गादामिद्रवीणम् भविष्मादे सुप्राव्ये यजामानाय सुन्वते अहम् राश्री सङ्गमानि वसूनाम् चिकितुषी प्रथमा यज्ञियानाम् तामाम् देवाव्याददु पुरुत्रा भूरिस्थात्राम् भूर्याम् वेषयन्ते मया सो अन्नामत्ति यो विपश्याति य प्राणीति यदि शृणोत्युक्तम् अमन्तवो मान्त उपक्षीयन्ति श्रुधि श्रोत श्रद्धिवन्ते वदामि अहमेव स्वयमिदम् वदामि जुष्टम् देवेभिरुतमानुषेभिः यम् कामयेतम् कामुग्रम् कृणोमि तम् ब्रह्माणम् समृजिन्तम् सोमेधाम् अहम् रुद्राय धनुरातानोमि ब्रह्मद्विषे शरवेहन्त वाओ अहम् जनाय समदम् कृणोम्यहम् जावा पृथिवी आविवेश अहम् सुवे पितरामस्य मूर्धन्मम योनिरप्स्वा अन्तः समुद्रे ततो वितिष्ठे भुवनानुविश्व तामून्याम् वर्ष्मणोपस्पृशामि अहमेव वाता इव प्रवाम्यारभामाण भुवनानि विश्वा परो दिवा पर एना पृथिव्ये तावाति महिना सम्बाभूव ॐ शान्ति शान्ति शान्तिः न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकम् निहितम् गुहायाम् विभ्राजते दत्यदयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थ सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे गह्रम् विपापम् परमेश्वभूतम् यत्पुण्डरीकम् पुरमद्य सर्गस्तम् तत्रापि दह्रम् गगनम् विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् यो वेदालो स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः
स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महेमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्तिः।